इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। गतदिने राष्ट्रपति भवने द्विदिवसीयं राज्यपालानां सम्मेलनं समाप्तिं गतम्। राष्ट्रपति द्रौपदी मुर्मुः परस्पर शिक्षणस्य भावनायां व्यापक विमर्शं कर्तुं राज्यपालानां सामूहिक प्रयत्नानां प्रशंसाम् अकरोत्। स्वकीये समापनाभिभाषणे सा उक्तवती यत् राज्यपालानां विभिन्न समूहः स्वकार्यालयस्य कार्यप्रदर्शनस्य च उन्नयनार्थं सममेव जनानां कल्याणाय स्वस्य बहुमूल्यं परामर्शं प्रदत्तवन्तः। समयेपि परामर्शाः कार्यान्विताः भविष्यन्ति इति सा विश्वासं प्रकटितवती। राष्ट्रपतिः अवदत् यत् देशस्य विकासः राज्यानां समावेशी त्वरित विकासस्योपरि निर्भरः अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् भारतं खाद्य समृद्ध राष्ट्रमस्ति, सममेव वैश्विक खाद्य सुरक्षायाः वैश्विक पोषण सुरक्षायाः च उपायेषु संलग्नमस्ति। असौ अग्रे अवदत् यत् सर्वकारः संशोधनैः सह कृषिक्षेत्रं सुदृढं कुर्वन्नस्ति, अथ च अस्योद्देश्यं कृषकाणां जीवने संशोधनस्य आनयनं वर्तते। गतदिने नवदिल्ल्यां कृष्यर्थशास्त्रिणां द्वात्रिंशत्तम अन्ताराष्ट्रिय सम्मेलनं सम्बोधयन् श्रीमोदी प्रोक्तवान् यत् कृषिः प्रशासनस्य आर्थिकनीतेः केन्द्रबिन्दुः अस्ति इति। अनेन पुनः भणितं यत् भारतं तृणधान्यानां दुग्धस्य द्विदलानां उपस्कराणां च बृहत्तमः उत्पादक देशो विद्यते। प्रधानमन्त्री उक्तवान् यत् भारतं रासायनिक मुक्त प्राकृतिक कृषिं प्रवर्धयति। अस्य वित्तीय वर्षस्य केन्द्रीय आयव्ययके अपि सतत कृषेः कृते ध्यानं प्रदीयते। श्रीमोदी अभिव्यक्तवान् यत् प्रशासनेन गत दश वर्षेषु नवशताधिकैकसहस्रं नूतनानां ऋतु अनुकूल सस्यानां अनेक प्रकाराः प्रदत्ताः। एतस्मिन् अन्ताराष्ट्रिय सम्मेलने प्रायशः पञ्चसप्ततिः देशानां सहस्राधिकाः प्रतिनिधयः भागं गृह्णन्ति। अस्य वर्षस्य सम्मेलनस्य विषयः अस्ति सतत कृषि खाद्य प्रणाली दिशि परिवर्तनम्। अस्मिन् अवसरे केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः अवदत् यत् प्रधानमन्त्रिणः श्रीमोदिनः नेतृत्वे भारतस्य कृषिवृद्धिः अजस्रं विश्वे एव सर्वाधिकी वृद्धिः विद्यते इति। उत्तराखण्डस्य आपदा प्रभावित क्षेत्रेषु सहायोद्धार कार्यम् अविरतं प्रचलति। ह्यः देहरादूने आयोजिते उच्चस्तरीयोपवेशने मुख्यमन्त्री पुष्कर सिंह धामीः वरिष्ठाधिकारिभ्यः सहायोद्धार कार्यं तीव्रगत्या कर्तुं निर्देशं दत्तवान्। केदारनाथ पदमार्गे शीघ्रमेव यातायातस्य पुनर्स्थापनार्थं क्षतिग्रस्तस्थानानां तत्कालमेव परिष्कारं कर्तुम् अपि मुख्यमन्त्री अवदत्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः MF गोल्ड प्रवाहिकातः अद्य मध्याह्ने सार्धैकवादनतः भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति। पैरिस ओलंपिक क्रीडायाः उपान्त्यचक्रे अद्य भारतीयः बैडमिंटन क्रीडकः लक्ष्यसेनः मध्याह्ने सार्ध त्रिवादने डेनमार्क देशस्य विक्टर एल्क्सेन इत्यमुं सम्मुखीकरिष्यति। विजयेन लक्ष्यः क्रीडायाः अन्तिमचक्रे स्वकीयं स्थानं सुनिश्चितं करिष्यति। टोक्यो ओलंपिक पदक विजेत्री लवलीना बोर्गोहाइन महिलानां 75 किलोग्राम वर्गे उपान्त्य क्रीडायां चीन देशस्य ली कियान इत्यनया सह स्पर्धिष्यते। इति वार्ताः।